श्रीलक्ष्मीस्तोत्रम् देवकृतम् क्षमस्य भगवत्यम्ब क्षमाशीले परात्परे शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते उपमे सत्त्वसाध्वीनाम् देवीनाम् देवपूजिते त्वया विना जगत्सर्वम् मृततुल्यम् च निष्फलम् सर्वसम्पत्स्वरूपात्वम् सन्तुष्टा सर्वरूपिणी कामेश्वर्यधिदेवी त्वम् त्वत्कलाः सर्वयोषितः कैलासे पार्वती त्वम् च क्षीरोधे सिन्धुकन्यका स्वर्गे च स्वर्गलक्ष्मीस्त्वम् मर्त्यलक्ष्मीश्च भूतले वैकुण्ठे च महालक्ष्मी देवदेवी सरस्वती गङ्गा च तुलसी त्वम् च सावित्री ब्रह्मलोकगा कृष्णप्राणाधिदेवी त्वम् गोलोके राधिका स्वयम् रासे रासेश्वरी त्वम् च बृन्दा बृन्दावने वने कृष्णप्रिया त्वम् भाण्डीरे चन्द्राचन्दनकानने विरजा चम्पकवने शतशृङ्गे च सुन्दरी पद्मावती पद्मवने मालती मालती वने कुन्ददन्ता कुन्दवने सुशीला केतकी वने कदम्बमाला त्वम् देवी कदम्बकाननेऽपि च राज्यलक्ष्मी राज्यगेहे गृहलक्ष्मीर्गृहे गृहे इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः इति लक्ष्मीस्तवम् पुण्यम् सर्वदेवैः कृतम् शुभम् यः पठेत् प्रातरुत्थाय स्तवैः सर्वम् लभेत् ध्रुवम् अभार्यो लभते भार्याम् विनीताम् ससुयम् सतीम् सुशीलाम् सुन्दरीम् रम्या मतिसुप्रियवादिनीम् पुत्रपौत्रवतीम् शुद्धाम् कुलजाम् कोमलाम् वराम् अपुत्रो लभते पुत्रम् वैष्णवम् चिरजीवनम् परमैश्वर्ययुक्तम् च विद्यावन्तम् यशस्विनम् भ्रष्टराज्यो लभेत् राज्यम् भ्रष्टश्रीर्लभते श्रियम् हतबन्धुर्लभेत् बन्धुम् धनभ्रष्टो धनम् लभेत् कीर्तिहीनो लभेत् कीर्तिम् प्रतिष्ठाम् च लभेत् ध्रुवम् सर्वमङ्गलदम् स्तोत्रम् शोकसन्तापनाशनम् हर्षानन्दकरम् शश्व दर्श्यमोक्षसुहृत्प्रदम् श्रीलक्ष्मीस्तोत्रम् समाप्तम्।